ಪಿತಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀವತೇ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತ ತೇ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯಾತವತ ಯಾನೋ ರುದ್ರಮೃಡಯ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೂರ ಘೋರಾ ಪಾಪಕಾಶಿನಿ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಚಾಕಶೀ ಯಾಮಿಷುಂ ಗಿರಿಶಂತ ಹಸ್ತೇ ಬಿಭಷ್ಯಸ್ತವೇ ಶಿವಾಂಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾ ವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂಸು ಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚ ದಧಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ ಅಹೇಗುಂಶ್ಚ ಸರ್ವಾನ್ ಜಂಭಯನ್ ಸರ್ವಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಭಬ್ರುಸ್ಸು ಮಂಗಲಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷುಶ್ರಿತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇರಯೇಮಹೇ ಅಸೌಖ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ ಅದೃಶನ್ನುತಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾ ಭೂತಾಹಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಥೋ ಹೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರನ್ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ಮಮುಭಯೋರಾನ್ನಿಯೋಜ್ಯ ಯಾಶ್ಚ ತೇ ಹಸ್ತ ಇಷವ ಪರಾತ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ಹೇ ನಿಷೇರ್ಯ ಶಲ್ಯಾನಾ ಮುಖ ಶಿವೋ ನ ಸುಮನಾ ಭವ ವಿಜ್ಯಂ ಧನುಕ್ಕ ಪರ್ದಿ ನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂಭುತ ಅರೇಷನ್ನಸ್ಯೇಷವ ಆಪುರಸ್ಯ ನಿಷಂಗತಿ ಯಾತೆ ಹೇತಿರ್ಮೀಡುಷ್ಟ ಮಹಸ್ತೆ ಬಭೂವತೆ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯಾನಾತತಾಯ ದೃಷ್ಟವೇ ಉಭಾಭ್ಯಾಮುತ ತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯಿಷು ದಿಸ್ತವಾರೇ ಅಸ್ಮನ್ನಿಧೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯಬಾಹವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्मिञ्जरायद्विषेमते पथीनाम् पतये नमो नमो बभ्लुषाय दिव्यादिनेनानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्रीणाम् पतये नमो नम कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नम ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिन इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नम श्रिकाविभ्यो जिगागुंसद्भ्यो मुष्णताम् पतये नमो नमोऽसिमद्भ्यो नक्तम् चरद्य प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रदिदधानेभ्यश्च वो नमो नम आयश्चद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम तिष्ठद्यो दावभ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगनाभ्यस्त्रिगुम् हरिभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नम सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नम सक्षभ्यो रथकारेभ्यश्च वो नमो नम कुलालेभ्यः कर्मारेभ्यश्च वो नमो नम पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नम श्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वरे च नमो गिरिशाय च शिपिविष्टाय च नमो मेधुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्र्याय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः ऊर्वजाय च परजाय च नमो मध्यमाय च अपगल्भाय च नमो जघन्याय च बुद्धियाय च नमः सोभ्याय च प्रतिसव्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिणे च नमो बिल्मिणे च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमुषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धीमते च नमः तीक्ष्णे च वे चायुधिरे च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नेप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वत्याय च नमो वर्षाय च वर्षाय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय चारुणाय च नमः शङ्घाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हरियते च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः स्तेत्याय च कोल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः षष्ट्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नम किगुंशिलाय च क्षयनाय च नम कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नम सल्प्याय च गेह्याय च नम काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नम पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च शून्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुलमानाय चाभिघ्नते च नमः आकिदते च प्रकिदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमे वत्केभ्यः द्रापे अन्धतस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मारोमो येषाम् किञ्च नाममत् याते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यदा नश्यमतद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृणानो रुद्रोतनो मयत्कृदि क्षयद्वीराय नमसा विधेमते यच्चञ्चयोश्च मनुराय जे पिता ददश्यामतव रुद्रप्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रमामितो वधेरविस्मन्तो नमसा विधेमते आराते गोग्र उत पूरुषग्ने क्षयत्वीराय स्वम् नमस्मेते अस्तु रक्षा च नो अदि च देव ब्रूयदा च न शर्म यच्च द्विबर्हाः स्तुहिश्रुतम् गत्त सदम् युवानम् मृगन्न भीममुपहत्वमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतुर्विणक्तु परित्वेषस्य दुर्मतिरगायो अवस्थिरा मगवद्यत्तनुष्वमीरस्तोकाय तनयाय मृडया मेडुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वदार आचर पिनाकम् बिभ्रदागहे विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामेशानो भगवः पराचीनामुखाकृधे सहस्राणि सहस्रशो ये रुद्र अधिभूम्याम् तेषागुम् सहस्रयोजने वधन्वानि तन्मसे अस्मिन्मात्यन्नवेऽन्तरिक्षे भवा अधि नीलग्रीवाशिति कण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशिति कण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासक्कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पदाम्पतिरक्षय ऐलभृदायव्युधः ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिनः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुम् सहस्रयोजने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशोदिचेत् दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् दिष्मो यश्च नो द्वेष्टितम् वोचम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु योषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योमत्याय हन्तवे तान्यज्ञस्य मायया सर्वान वयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरधिरुद्रो मा विशान्तकः तेनाप्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुस्तु यस्य शत्सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वहेशजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोष सेवा वर्धन्तु वाङ्गिरः जुम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च म आधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनुश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मे भश्च मे जेमा च मे महिमा च मे परिमा च मे प्रतिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लृप्तम् च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शरम् च मे मयश्च मे प्रियम् च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे క్షీరం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయశ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే నమిత్రం చ మే భయం చ మే సుఖం చ మే శయనం చ మే సూషా చ మే సుదినం చ మే ఊర్చ మే సూనృత చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సద్భిశ్చ మే తపేదిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే జయేత్రం చ మా ఔద్భిద్యం చ మే రయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభుచ మే ప్రభుచ మే బహుచ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కోయవాశ్చ మేనం చ మే శుచ్చ మే విహయశ్చ మే యవాశ్చ మే మాశాశ్చ మే తిలాశ్చ మే ముద్గాశ్చ మే ఖల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మే నవశ్చ మే శామకాశ్చ మే నివారాశ్చ మే అశ్వా చ మే మృత్తికా చ మే గిరయశ్చ మే పర్వతాశ్చ మే శిఖరాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే శేషం చ మే త్రపుశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ మాపశ్చ మే వీరుధశ్చ మోషధయశ్చ మే కృష్ణపచ్చం చ మే కృష్ణపచ్చం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతా విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్థశ్చ మేమశ్చ హితిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మఇంద్రశ్చ మే సోమశ్చ మఇంద్రశ్చ మే సవితా చ మఇంద్రశ్చ మే సరస్వతీ చ మఇంద్రశ్చ మే ఊషా చ మఇంద్రశ్చ మే బృహస్పతిశ్చ మఇంద్రశ్చ మే మిత్రశ్చ మఇంద్రశ్చ మే వరుణశ్చ మఇంద్రశ్చ మే త్వష్టా చ మఇంద్రశ్చ మే దాతా చ మఇంద్రశ్చ మే విష్ణుశ్చ మఇంద్రశ్చ మే శ్వినౌ చ మఇంద్రశ్చ మే మరుతశ్చ మఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మఇంద్రశ్చ మే అంతరిక్షం చ మఇంద్రశ్చ మే జౌశ్చ మఇంద్రశ్చ మే దిశశ్చ మఇంద్రశ్చ మే మూర్ధా చ మఇంద్రశ్చ మే ప్రజాపతిశ్చ మఇంద్రశ్చ మే అరుంశుశ్చ మే రశ్మిశ్చ మే దాభ్యశ్చ మే ధిపతిశ్చ మ ఉపాగుంశుశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయమశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంత్రీ చ మాగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతుగ్రహాశ్చ మే తిగ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వదీయాశ్చ మే మాహేంద్రశ్చ మాదిత్యశ్చ మే సారిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పార్థివతశ్చ మే హార్యోర్జనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేధిశ్చ మే దృష్ణిరాశ్చ మే సృజశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే
స్వరవశ్చ మ ఉపరవాశ్చ మి దిశవణీ చ మి ద్రోణకలశశ్చ మి వాయవ్యాని చ మి పూతభృచ్చ మహాధవనీయశ్చ మ ఆర్నీర్ధం చ మి అవిర్ధానం చ మి గృహాశ్చ మి సదశ్చ మి పురోడాశ్వాశ్చ మి పచతాశ్చ మి వృధశ్చ మి స్వగాకారశ్చ మి అగ్నిశ్చ మి ఘర్మశ్చ మేర్కశ్చ మి సూర్యశ్చ మి ప్రాణశ్చ మి శ్వమేధశ్చ మి పృథివీశ్చ మి దితిశ్చ మి దితిశ్చ మి ద్యౌశ్చ మి షట్వరే రంగులయో దిశశ్చ మి యజ్ఞేన కల్పం తామృత్స మి సామ చ మి స్తోమశ్చ మి యజుశ్చ మి దీక్షా చ మి తపశ్చ మరుతుశ్చ మి వ్రతం చ మి హోరాత్రయో వృష్ట్యా బృహద్రథం తరే చ మి యజ్ఞేన కల్పేతాం గర్భాశ్చ మి వత్సాశ్చ మి త్రయవిశ్చ మి త్రయవే చ మి దిత్యవాచ్చ మి దిత్యౌహే చ మి పంచావిశ్చ మి పంచావే చ మి త్రివత్సశ్చ మి త్రివత్సా చ మి తుర్యవాచ్చ మి తుర్యౌహే చ మి పష్టవాచ్చ మి పష్టౌహే చ మహుక్షా చ మి వశా చ మృషభశ్చ మి వేహశ్చ మి నడ్వాంచ మి ధేనుశ్చ మ ఆయుర్యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతామపానో యజ్ఞేన కల్పతాం వ్యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాగుశ్రోత్ర యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాగ్యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకా చ మి తిస్రశ్చ మి పంచ చ మి సప్త చ మి నవ చ మ ఏకాదశ చ మి త్రయోదశ చ మి పంచదశ చ మి సప్తదశ చ మి నవదశ చ మ ఏక విగుంషతిశ్చ మి త్రయో విగుంషతిశ్చ మి పంచ విగుంషతిశ్చ మి సప్త విగుంషతిశ్చ మి నవ విగుంషతిశ్చ మ ఏక త్రిగుంషచ్చ మి త్రయస్త్రిగుంషచ్చ మి చతశ్చ మి అష్టౌ చ మి ద్వాదశ చ మి షోడశ చ మి విగుంషతిశ్చ మి చతుర్విగుంషతిశ్చ మి అష్టావిగుంషతిశ్చ మి ద్వాత్రిగుంషచ్చ మి షట్త్రిగుంషచ్చ మి చత్వారిగుంషచ్చ మి చతుశ్చత్వారిగుంషచ్చ మి అష్టాచత్వారిగుంషచ్చ మి వాజశ్చ ప్రసవశ్చ విజశ్చ క్రతుశ్చ సువశ్చ మూర్ధా చ ష్ణీయశ్చాంత్యాయనశ్చాంత్యశ్చ భువనశ్చ భువనశ్చాధిపతిశ్చ ఇడా దేవోర్మనుర్యజ్ఞనిర్బృహస్పతిరుత్థామదాని సగుంసి షద్విశ్వే దేవాసూక్తవాచ పృథివిమాతర్మాహిగుంసిర్మధుమనిష్యే మధుజనిష్యే మధువక్ష్యామి మధువదిష్యామి మధుమతీన్ దేవేభ్యో వాచముద్యాసగుం శుశ్రూషేణ్యా మనుష్యేభ్యస్తం మా దేవ అవంతు శోభాయే పితరోను మదంతు ఓం శాంతి 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 ఓం తచ్చయోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపతయే దైవీ స్వస్తిరస్తునః స్వస్తిర్మానుషేభ్యః
ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीरुषा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यदिष्टदशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्छभव्यम् उदामृतद्वस्येषा नः यदन्येनातिरोहति एतावारस्य महिमा अतोषायागश्च पुरुषः पादोऽस्य विश्वभूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्वउदै पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् शासनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिष्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीराज्यम् ग्रीष्म इद्मः शरद्धविः सप्तास्या सन्परिदयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अभद्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञा सर्वहुतः सम्भृतम् वृषधाज्यम् पशुगुस्तागुश्चक्रे वायव्यान् आरण्याङ्घ्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचस्वामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेशो भयादतः गावो ह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कदिधा व्यकल्पयन् मुखम् किमस्य कौ बाहु का ऊरुपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यः कृतः ऊरु तदस्य यद्वैश्यः पद्यागुम् शूद्रो अजायत चन्द्रमामनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचिद्य धीरः नामानि कृत्वा विवदन्यदास्ते धाता पुरस्ताद्यमुधा जहारा चक्रः प्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्ता अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूतः पृथिव्यैरशाश्च विश्वकर्मणः समवत्तदादि तस्य त्वष्टा विदध्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विध्यधेयनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् भ्रामम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा अशन्वशे ह्रेश्चते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनव्यातम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे घातुम् यज्ञाय घातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः भूतम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः पुरुषस्य विद्मसहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्रः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दिः प्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयात् वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्मः प्रचोदयात् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् वज्रनखाय विद्महे देष्णदघृष्टाय धीमहि तन्नो नारसिगुम्भः प्रचोदयात् भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्यः प्रचोदयात् वैश्वानराय विद्महे लालीलाय धीमहि तन्नो अग्निः प्रचोदयात् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गे प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् स्वस्तिर् प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः शान्ति।